ओम नमो भगवते वासुदेवाय। अथ पंच पंचाशत्तमोऽध्यायः। श्रीशुक उवाच। कामस्तु वासुदेवांशो दग्धः प्राग् रुद्रमन्युना देहोपपत्तये भूयस्तमेव प्रत्यपद्यत। स एव जातो वैदर्भ्याम् कृष्णवीर्यसमुद्भवः प्रद्युम्न इति विख्यातः सर्वतो नवमः पितुः। तम् शम्बरः कामरूपी हृत्वा तोकमनिर्दशम् सविदित्वात्मनः शत्रुम् प्रास्यो दनवत्यगाद् गृहम्। तम् निर्जगार बलवान् मीनः सोऽप्यपरैः सह वृतो जालेन महता गृहीतो मत्स्यजीविभिः। तम् शम्बराय कैवर्ता उपाजर्रुरुपायनम् सूदामहानसम् नीत्वा वद्यन् स्वधितिनाद्भुतम्। दृष्ट्वा तदुदरे बालम् मायावत्यै न्यवेदयन् नारदो कथयत् सर्वम् तस्याः शङ्कितचेतसः। बालस्य तत्त्वमुत्पत्तिम् मत्स्योदरनिवेशनम् सा च कामस्य वै पत्नी रतिर्नाम यशस्विनी। पत्युर्निदग्धदेहस्य देहोत्पत्तिम् प्रतीक्षति निरूपिता शम्बरेण सासु पौदनसाधने। कामदेवम् शिशुम् बुद्ध्वा चक्रे स्नेहम् तदार्भके नातिदीर्घेण कालेन सकार्ष्णीरूढयौवनः। जनयामास नारीणाम् वीक्षन्तीनाम् च विभ्रमम्। सा तम् पतिम् पद्मतलायते क्षणम् प्रलम्ब बाहुम् नरलोकसुन्दरम् सव्रीडहासोत्तभितब्रुवेक्षति प्रीत्योपतस्थे रतिरङ्गसौरतैः। तामाह भगवान् कार्ष्णिर्मातस्ते मतिरन्यथा मातृभावमतिक्रम्य वर्तसे कामिनी यथा। रतिरुवाच भवान्नारायणसुतः शम्बरेणाहृतो गृहात् अहम् तेऽधिकृता पत्नी रतिः कामो भवान् प्रभो। एष त्वा निर्दशम् सिन्धा वक्षिपच्छम्बरोऽसुरः मत्स्योग्रसी तदुदरादिह प्राप्तो भवान् प्रभो। तमिमम् जहि दुर्धर्षम् दुर्जयम् शत्रुमात्मनः मायाशतविदम् त्वम् च मायाभिर्मोहनादिभिः। परिशोचति ते माता कुररीव गतप्रजा पुत्रस्नेहाकुलादीना विवत्सा गौरिवातुरा। प्रभाष्यैवम् ददौ विद्याम् प्रद्युम्नाय महात्मने मायावती महामायाम् सर्वमायाविनाशिनीम्। स च शम्बरमभ्येत्य संयुगाय स महावयत् अविषय्यैस्तमाक्षेपैः क्षिपन् सञ्जनयन् कलिम्। सोऽधिक्षिप्तो दुर्वचोभिः पादाहतैवोरगः निश्चक्रामगदापाणिरमर्षात्ताम्रलोचनः। गदामाविध्य तरसा प्रद्युम्नाय महात्मने प्रक्षिप्य वनदन्नादम् वज्रनिष्पेषनिष्ठुरम्। तामापतन्तीम् भगवान् प्रद्युम्नो गदया गदाम् अपास्य शत्रवे क्रुद्धः प्राहिणोत्स्वगदाम् नृप। स च मायाम् समाश्रित्य दैतेयीम् मय दर्शिताम् मुमुचेऽस्त्रमयम् वर्षम् कार्ष्णौ वैहायसोऽसुरः। बाध्यमानोऽस्त्रवर्षेण रौक्मिणेयो महारथः सत्त्वात्मिकाम् महाविद्याम् सर्वमायोपमर्दिनीम्। ततो गहुयकगान्धर्व पैशाचोरगराक्षसीः प्रायुङ्क्तशतसो दैत्यः कार्ष्णिर्व्यथमयत्सताः। निशातमसि मुद्यम्य सकिरीटम् सकुण्डलम् शम्बरस्य शिरः कायात् ताम्रस्मस्रोजसाहरत्। आकीर्यमाणो दिविजैस्तुवद्भिः कुसुमोत्करैः भार्ययाम्बरचारिण्या पुरम् नीतो विहाय सा अन्तःपुरवरम् राजन् ललनाशतसङ्कुलम् विवेशपत्न्या गगनाद्विद्युतेव बलाहकः। तम् दृष्ट्वा जलदस्यामम् पीतकौशेयवाससम् प्रलम्ब बाहुम् ताम्राक्षम् सुस्मितम् रुचिराननम् स्वलङ्कृतमुखाम् भोजम् नीलवक्रालकालिभिः। कृष्णम् मत्वा स्त्रियोरीता निरिल्युस्तत्र तत्र अवधार्य शनैरीषद्वैलक्षण्येन योषितः उपजग्मुः प्रमुदिता सस्त्रीरत्नम् सुविस्मिताः। अथ तत्रासितापाङ्गी वैदर्भीवल्गुभाषिणी अस्मरत्स्वसुतम् नष्टम् स्नेहस्नुतपयोधरा। कोऽन्वयम् नरवैदूर्यः कस्य वा कमले क्षणः धृतकया वा जठरे केयम् लब्धा त्वनेन वा। मम चाप्यात्मजो नष्टो नीतो यः सूतिका गृहात् एतत्तुल्यवयोरूपो यदि जीवति कुत्रचित्। कथम् त्वनेन सम्प्राप्तम् सारूप्यम् शार्ङ्गधन्वनः आकृत्यावयवैर्गत्या स्वरहासावलोकनैः। स एव वा भवेन्नूनम् यो मे गर्भे धृतोर्भकः अमुस्मिन् प्रीतिरधिका वामस्फुरति मे भुजः। एवं मीमांसमानायां वैदर्भ्यां देवकी सुतः। देवक्यानक दुन्दुभ्याम् उत्तम श्लोक आगमत्। विज्ञातार्थोऽपि भगवान् स्तूष्णीमास जनार्दनः। नारदो कथयत् सर्वं शम्बराहरणादिकम्। तच्छ्रुत्वा महदाश्चर्यं कृष्णान्तः पुरयोषितः। अभ्यनन्दन् बहुनब्दान् नष्टं मृतमिवागतम्। देवकी वसुदेवश्च कृष्णरामौ तथा स्त्रियः। दम्पती तौ परिष्वज्य रुक्मिणी च ययुर्मुदम्। नष्टं प्रद्युम्नमायातमाकर्ण्यद्वारकौकसः। अहो मृतैवायातो बालो दिष्ट्येतिहा ब्रुवन्। यं वै मुहो पितृसरूपनिजेशभावास्तन्मातरो यदभजन्रहरूढभावाः। चित्रं न तत् खलु रमास्पदबिम्बबिम्बे कामे स्मरेक्षिविषये किमुतान्यनार्यः। ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् दशमस्कन्धे उत्तरार्धे प्रद्युम्नोत्पत्तिनिरूपणम् नाम पञ्चपञ्चाशत्तमोऽध्यायः। श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधि माम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।